एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। अस्यैव वैशाखस्य त्रिंशे दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय अद्य स्वच्छ मनोनयनपत्रम् पञ्जीक्रियमाणम् वर्तते। मनोनयनपत्रस्य पञ्जीकरणाय पूर्वाह्नस्य 10 वादनात् अपराह्नस्य 5 वादनम् यावत् समय निर्धारितो वर्तते। अत्रान्तरे निर्वाचनायोगेन स्थानीय स्तराणाम् निर्वाचनस्य सम्पूर्ण पूर्वकार्यम् प्रपूरितमिति ज्ञापयता निर्वाचनस्याचार संहिताम् परिपाल्य मनोनयनपत्रम् पञ्जीकारयितुम् अनुरोधम् वर्तते। आयोगेन गतदिने काष्ठमण्डपे पत्रकार सम्मेलनम् आयोज्य अद्य सो वा स्वानुकूल दिने समय च निर्वाचनाधिकृतस्य कार्यालये मनोनयन पत्रम् पञ्जीकारयितुम् अनुरुद्धम्। पत्रकार सम्मेलने प्रमुख निर्वाचन आयुक्तः दिनेश कुमार थपलिया राजनीतिक दलानां पक्षतो मनोनयन पत्रस्य पञ्जीकरणक्रमे समावेशी सिद्धान्तम् विचार्य प्रत्याशिनो निर्धारयितुम् अनुरुणत्। निर्वाचन आयोगेन अद्य स्वच्छ मनोनयन पत्रस्य पञ्जीकरणस्य एतन्मासस्य 3 दिवसे प्रत्याशिनां विरुद्धे निवेदन प्रस्तुतेः 14-15 दिवसयोः निवेदनानाम् अनुसन्धानस्य 16 दिवसे प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनस्य च कार्यतालिका निर्धारिता वर्तते। आयोगेन वैशाखस्य 17 दिवसे प्रत्याशिभ्यो निर्वाचन चिन्ह प्रदानस्य कार्यक्रमोस्थिति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेलः ज्ञापयत्। एतस्मिन् क्रमे निर्वाचन आयोगेन स्थानीय स्तराणाम् निर्वाचनाय गतदिवसं यावत् 58 जनपदानां कृते 2,36,00,000 च मतपत्राणि मुद्रितानीति ज्ञापितं वर्तते। आयोगस्य प्रवक्तु शालिग्राम शर्मा पौडलस्य अनुसारेण वैशाखस्य 3 दिवसे सम्पत्स्यमानाय स्थानीय स्तराणाम् निर्वाचनाय 2,94,00,000 च मतपत्राणि आवश्यकानि भवन्ति। आयोगेन गतदिने आयोजिते पत्रकार सम्मेलने प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया दलानां प्रत्याशीनां च संख्यायाः आधिक्यस्य कारणेन मतपत्राणि अपि नैकविधानि भवन्तीति अतर्कयत्। असौ मतपत्राणां मुद्रणेन निर्वाचनस्य सम्पादनं कष्टकरं जायमानमस्तीति हेतोः आगामि दिनेष् वैद्युतोपकरणस्य प्रयोगार्थं दलानां ध्यानम् आकर्षयत्। गृहमन्त्री बालकृष्ण खाना स्थानीय स्तराणाम् निर्वाचनस्य अन्तर्गतम् अद्य स्वच्छ प्रत्याशिनां मनोनयनस्य समये विहितायाः सुरक्षायाः पूर्वकार्यस्य विषये सप्तानां प्रदेशानां प्रमुखेभ्यः अजानात्। ह्यः गृहमन्त्री खाना दूरभाषस्य माध्यमेन सुरक्षायाः पूर्वकार्यम् सबलं विधातुम् स्वच्छं निष्पक्षं च निर्वाचनं सम्पादयितुं च निरदिशत्। तदवसरे सप्तभिरेव प्रदेश सुरक्षा प्रमुखैः सुरक्षायाः विषये ज्ञापितमासीत्। निर्वाचनायोगेन स्थानीय स्तराणाम् निर्वाचनस्य क्रमे ह्यस्तन दिवसात् संयुक्त निर्वाचन संचालन केन्द्रम् संचालितम् वर्तते। आयोगस्य संयोजकत्वे गृहमन्त्रालयस्य विभिन्न सुरक्षा निकायै सह सम्बद्धानां निकायानां प्रतिनिधित्वे च केन्द्रमेतत् आयोगस्य बहादुर भवनस्थिते केन्द्रीय कार्यालये प्रमुख निर्वाचनायुक्तः दिनेश कुमार थपलिया शुभारभत। अस्यैव वैशाखस्य 3 दिवसे स्थानीय स्तराणाम् सम्पत्स्यमानाय निर्वाचनाय क्रियान्वितायाः निर्वाचनानुगमन निर्देशिकायाः सुरक्षा निर्देशिकायाश्च अनुसारेण संघटितेन केन्द्रेण अनेन निर्वाचनस्य नियमिततया अनुगमनम् सूचनायाः आदान प्रदानम् निर्वाचनस्य पूर्वकार्यस्य क्रमे आपतितायाः समस्यायाः समाधानम् च क्रियन्ते। केन्द्रस्य संयोजकः आयोगस्य सहसचिवः शालिग्राम शर्मा पौडेलोऽस्ति। कार्यक्रमे प्रमुखायुक्तेन थपलिया विधेयेन सर्वाणि दलानि आचार संहितां पालयितुं प्रदर्शनपूर्णं प्रचार प्रसारं न कर्तुं च अनुरुद्धानि आसन्। अद्य 16 लोकतन्त्र दिवस विविधैः कार्यक्रमैः सह आराष्ट्रं समायोज्यमानो वर्तते। 63-अधिक-2000 वैक्रमाब्दस्य वैशाख मासस्य 11 दिवसे तात्कालिकेन राज्ञा ज्ञानेन्द्रेण आन्दोलनरत दलानां मार्गचित्रानुरूपं विघटिता संसद पुनस्थापिता आसीत्। 64-अधिक-2000 विक्रम वर्षतो आराष्ट्रं लोकतन्त्र दिवस समायोज्यमानो वर्तते। 70-अधिक-2000 वैक्रमाब्दस्य मार्गशीर्ष मासस्य 4 दिवसे सम्पन्नेन द्वितीय संविधानसभायाः निर्वाचनेन निर्वाचितया सभया 72-अधिक-2000 वैक्रमाब्दस्य आश्विन मासस्य 3 दिवसे संघीय लोकतान्त्रिक गणतन्त्र नेपालस्य संविधानं क्रियान्वितम् आसीत्। एतस्य परिवर्तनस्यैव अनुसारं प्रतिवर्षम् अद्य वैशाखस्य 11 दिवसे लोकतन्त्र दिवस समायोज्यमानो वर्तते। प्रधानमन्त्रिणा शेरबहादुर देउवा विधेयेन सह नेपाल भ्रमणे विद्यमानैः अमेरिका देशीय संसद सदस्यैः ह्यः शिष्टाचार मेलनं विहितम्। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणो देउवाविधस्य सांसदस्य क्रिस्टन गिलीब्रान्ड इत्यस्य नेतृत्वस्य 5 सदस्यीय प्रतिनिधिमण्डलस्य च मध्ये नेपाल अमेरिका देशयोः सम्बन्धस्य विविध पक्षस्य पारस्परिक हितस्य समानाभिरुच्यस्य विषयेष् विमृष्टमिति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। नेपाल अमेरिका देशयोः मित्रतायाः उभयोर्देशयोः संसदः उभयोर्देशयोः जनतायाः सहकार्य प्रवर्धनस्य जलवायु परिवर्तनस्य च विषयेष्वपि विचाराणाम् आदान प्रदानम् अभवत् इति परराष्ट्र मन्त्रालयो ज्ञापयति। ह्यैव परराष्ट्रमन्त्रिणा नारायण खड्का विधेन सह अपि अनेन प्रतिनिधिमण्डलेन मेलवार्ता विहिता। मेलने उभयोर्पक्षयोर्मध्ये आर्थिक विकास प्रवृत्तिष् विभिन्नेष् क्षेत्रेष् सहयोग विस्तारस्य विषये विमिष्टमासीत्। सः सोमवासरे नेपाल अमेरिका देशयोर्मध्ये कूटनीतिक सम्बन्धस्य स्थापनायाः पञ्चसप्ततिः वर्षाणि प्रपूर्यमाणानि सन्ति। राष्ट्रपति विद्यादेवी भण्डारी निगदति वास्तुविज्ञस्य राष्ट्रिय ध्वजस्य वर्तमान स्वरूपस्य अभिकल्पकस्य च शंकरनाथ रिमालस्य श्रीयन्त्र नामके ग्रन्थे समाविष्टाः पक्ष्याः पौरस्य दर्शनस्य प्रत्यक्ष प्रमाणानि वर्तन्ते। शीतल निवासवर्तिनी राष्ट्रपति भवने ह्यः शशि शंकर कलालयेन आयोजिते रिमालस्य श्रीयन्त्र नाम्न्याः कृतेः प्राभिलेखनस्य लोकार्पण समारोहे राष्ट्रपति भण्डारी अगदत् धार्मिक सांस्कृतिक महत्वानां सम्पदां श्रीयन्त्रेण विभूषणस्य परम्परातः श्रीयन्त्रं राष्ट्रिय सांस्कृतिक प्रतीकस्य रूपेण स्थितमस्तीति अनुभवितुं शक्यते। राष्ट्रपति भण्डारी अवासत राष्ट्रिय सम्पदः वास्तुविषयस्य अभिकल्पकस्य रिमालस्य गहनानुसन्धानस्य फलस्वरूपा कृतिरेषा समाजाय महत्वपूर्णं प्राविलेखनमस्ति। नेकपा एकीकृत समाजवादी दलस्य अध्यक्ष माधव कुमार नेपाल कथयति वामान्दोलनस्य लक्ष्यं समाजवादी व्यवस्थायाः माध्यमेन जनतायाः समृद्धिरस्ति। नेपाल कम्युनिष्ट दलस्य चतुस्सप्ततितमस्य स्थापना दिवसस्यावसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे अध्यक्षो नेपालः अकथयत् राष्ट्रे समृद्धेः कार्याणि सम्पादयितुं जनतायाः आकांक्षाः पूरयितुं च समाजवादिन्याः अर्थव्यवस्थायाः आवश्यकता वर्तते। एमाले दले अनुचित प्रवृत्तेः व्यक्तिवादी चरित्रस्य च वर्चस्वं वर्तते। अनेन दलेन मार्क्सवादस्य लेनिनवादस्य च आदर्शः त्यक्तः इत्यतः आत्मना नेकपा समाजवादी दलं स्थापितमिति अध्यक्षो नेपालः समस्पष्टयत्। नेपाली कांग्रेस दलस्य नेता प्रकाशमान सिंह वदति नेपाली कांग्रेस दलेन राष्ट्रस्य आर्थिक क्रान्ते अभियानम् अग्रे वर्धाप्यते। नेपाली कांग्रेस दलस्य काष्ठमण्डपस्य सप्तम क्षेत्रस्य ख प्रदेशेन ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे असौ संविधान निर्माणस्य नेतृत्वं कांग्रेस दलेन विहितं देशस्य आर्थिक क्रान्तेस्य नेतृत्वं कांग्रेस दलम् एव करिष्यति इति प्रतिबद्धतां व्यक्तवान्। जुम्ला जनपदस्य तिला ग्रामपालिकायाः तृतीयवाडा क्षेत्रस्य सार्कीवाडा स्थाने ह्यः अग्निदाहेन एकस्यैव परिवारस्य चत्वारो जनाः मृताः सन्ति। तिला ग्रामपालिकायाः सार्कीवाडा निवासिनो मानसिंह सार्की इत्यस्य गृहे अग्निदाहेन दग्धे सति एतस्य पुत्र्यौ एकादशवर्षीया अनु सार्की, त्रिवर्षीया दर्शना सार्की च एकवर्षीयः पुत्रः दिपेश सार्की, द्वित्री पुत्री चतुर्दशवर्षीया तीर्सना सार्की च मृताः इति प्रहरी नायब उपरीक्षकः नरेन्द्र चन्दः ज्ञापितवान्। अग्निदाहेन आहतानां मानसिंहस्य एतदीय पत्न्याः फागुनी सार्की इत्यस्याः अनुजायाः रुञ्चकली सार्की इत्यस्याश्च कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठाने उपचारः विधीयमानोऽस्तीति प्रहरिणा ज्ञापितं वर्तते इति समाचाराः।